इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। लोकसभा निर्वाचनस्य पञ्चमचरणीय मतदानं शान्तिपूर्णरीत्या ह्यः सम्पन्नम्। गतरात्रौ सार्धैकादशवादनं यावत् 60% मतदानम् अवलोकितम्। षड् राज्यानां द्वयोः केन्द्रशासित प्रदेशयोः 49 क्षेत्रेभ्यः अस्मिन् चरणे मतदानानि विहितानि। पञ्चमचरणेऽस्मिन् उत्तरप्रदेशस्य 14 आसनेभ्यः, महाराष्ट्रस्य 3 आसनेभ्यः, पश्चिमबंगालस्य 7 आसनेभ्यः, बिहार ओडिशा राज्ययोः प्रत्येकं 5 आसनेभ्यः, झारखण्डस्य आसनत्रयाय, जम्मू कश्मीर लद्दाखयोः च प्रत्येकं 1 लोकसभासनाय मतदानं जातम्। अस्मिन् चरणे मुख्य प्रत्याशीषु केन्द्रीय मन्त्रिणः भारतीय जनता पार्टीति दलस्य वरिष्ठ नेतारश्च सन्ति, येषु राजनाथ सिंहः, स्मृति ईरानी, पीयूष गोयलः, कांग्रेसस्य राहुल गांधी, केएल शर्मा, नेशनल कॉन्फ्रेंस इत्यस्य उमर अब्दुल्ला, लोक जनशक्ति पार्टीति दलस्य चिराग पासवानोऽपि वर्तन्ते। जम्मूकश्मीरस्य बारामूला जनपदे शान्तिपूर्णविधिना 57% मतदानं समंकितम्। तत्रैव बिहारराज्ये 55%, झारखण्डे 63%, लद्दाखे 70%, महाराष्ट्रे 54%, ओडिशायां 69%, उत्तरप्रदेशे 58%, पश्चिमबंगाले च 67% यावत् मतदानं समंकितम्। एतेन सहैव सामान्य निर्वाचने साम्प्रतं यावत् 25 राज्यानां केन्द्रशासित प्रदेशानां च 28,400 संसदीय क्षेत्राणि आच्छादितानि। अपि च अरुणाचलप्रदेश, सिक्किम, आन्ध्रप्रदेश राज्यानां ओडिशायाश्च 63 विधानसभासनेभ्यः मतदानम् अपि समनुष्ठितम्। प्रधानमन्त्री अथ च भाजपेति दलस्य वरिष्ठनेता नरेन्द्रमोदी अद्य स्वीय संसदीय निर्वाचनक्षेत्रे वाराणस्यां 25,000+ महिलाभिः सह चर्चां साधयिष्यति। श्रीमोदी सम्पूर्णानन्द संस्कृत विश्वविद्यालये मातृशक्ति कार्यक्रमावधौ चिकित्सकाभिः, शिक्षिकाभिः, अधिवक्तृभिः, क्रीडिकाभिः इत्यादिभिः महिलाभिः सह चर्चां विधास्यति। श्वः च श्रीमोदी उत्तरप्रदेशे 2 जनसभे सम्बोधयिष्यति। अधुना वाराणस्याः श्रीमोदी वारत्रयं स्पर्धिष्यति। कांग्रेसदलस्य प्रत्याशी अजयरायः श्रीमोदिनः विपक्षे अस्मात् लोकसभाक्षेत्रात् निर्वाचनरणे सन्ति। अवधेयं वर्तते यत् आगामि मासस्य प्रथमे दिनांके वाराणसीनगरे मतदानं भविष्यति। उत्तराखण्डराज्ये चतुर्धाम यात्रावधौ श्रद्धालूनाम् अत्यधिकं सम्मर्दम् अवलोक्य यात्रिणां प्रत्यक्षतया सम्भाव्यमाना पञ्जीकरणप्रक्रिया मई मासस्य 31 यावत् स्थगिता जाता। राज्यस्य मुख्यमन्त्री पुष्कर सिंह धामी ह्यः देहरादून नगरे जाते एकस्मिन् उपवेशने एते दिङ्निर्देशाः प्रसारिताः। अत्रान्तरे राज्ये चतुर्धाम यात्रा सम्यक्तया प्रचलत्येव। छत्तीसगढ़े एकस्यां जातायां मार्गीय दुर्घटनायां 18 महिलाः समेत्य 19 जनाः मृत्युम् उपगताः। इयं घटना कबीरधाम जनपदस्य कुकदूर आरक्षिस्थानके तदा घटिता यदा बहपानी ग्रामं निकषा एकं वाहनम् अनियन्त्रणं भूत्वा एकस्यां कुल्यां पतितम्। भारतस्य मिश्रित रिले दलेन थाईलैंड देशस्य बैंकॉक नगरे एशियन एथलेटिक्स चैंपियनशिप स्पर्धायाः चतुर्गुणात्मक 400 मीटरात्मकायां प्रतिस्पर्धायां स्वर्णपदकं विजितम्। इति वार्ताः।